इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधिः तिवारी। अथ वार्ताः। पञ्चविंशत्यधिकद्विसहस्रतमवर्षीयः जनजाति सांस्कृतिक समागमः अद्य प्रयागराजस्य महाकुम्भक्षेत्रे समायोज्यते, यस्मिन् देशस्य 15,000+ संख्यकाः आदिवासिनः भागं स्वीकरिष्यन्ति। अस्माकं वार्ताहरः सूचितवान् यत् अस्मिन् षड्दिवसात्मके कार्यक्रमे सर्वे आदिवासीजनाः आदिवासीजगतः संस्कृतेः परम्पराणाञ्च रक्षणार्थं संकल्पमपि स्वीकरिष्यन्ति। अवधेयं वर्तते यत् 25,000+ वर्षं बिरसा मुण्डा इत्येतस्य 50,000+ जयन्त्याः शुभावसरे जनजातीय गौरव वर्षत्वेन समुद्घोषितम्। आकाशवाण्या सह वार्तां सम्पादयन् अखिल भारतीय कल्याणाश्रमस्य आयोजन सचिवः अतुलजोगः सूचितवान् यत् एतस्मिन् युवकुम्भे देशस्य 8,000+ यावत् आदिवासी युवानः भागं भजिष्यन्ति। असौ अग्रे कथितवान् यत् केन्द्रीय जनजातीय विषयक राज्यमन्त्री दुर्गादास उइके इत्येषः अस्य कार्यक्रमस्य उद्घाटनं करिष्यति। कार्यक्रमावधौ विविध राज्यानां 25 युवानः सम्मानिताः भविष्यन्ति, यैः आदिवासी समुदायाय उत्कृष्ट कार्यं सम्पादितम्। जनजातीय समाज सम्बद्धस्य प्रदर्शनस्य अपि आयोजनं भविष्यति, तथा च देशस्य 20,000+ सांस्कृतिक नृत्य समूहाः भागं स्वकलायाः प्रदर्शनं च करिष्यन्ति। त्रिवेणी संगमे अपि पवित्रं स्नानं करिष्यन्ति। 70-सदस्ययुतायै दिल्ली विधानसभायै मतदानं ह्यः शान्तिपूर्ण पद्धत्या सुसम्पन्नम्। अत्रावधौ भूयोऽपि 60.42% यावत् मतदानं समनुष्ठितम्। सर्वाधिकं 66% यावच्च मतदानं उत्तरपूर्वीय जनपदे समंकितम्। तत्रैव न्यूनं मतदानं 50.94% यावत् दक्षिणपूर्वीय दिल्ल्यां जातम्। येषां नेतॄणां नियते निर्णयः ईवीएम इत्येतस्मिन् यन्त्रे स्थापितः तेषु आम आदमी पार्टीति दलस्य संयोजकः अरविन्द केजरीवालः आदिशी, मनीष सिसोदियाः, भाजपेति दलस्य प्रवेशवर्मा, विजेन्द्रगुप्ता, अरविन्द सिंह लवली इत्येषः, रमेश बीधुडी इत्यसौ च सम्मिलिताः विद्यन्ते। आहत्य 99,000+ प्रत्याशिनः निर्वाचन प्रतिस्पर्धायाम् आसन्। तमिलनाडोः ईरोड ईस्ट इत्येतस्मिन् अथ च उत्तरप्रदेशस्य मिल्कीपुर इत्येतस्मिन् विधानसभासने अपि ह्यः उपनिर्वाचनाय मतदानं प्रतिपादितम्। ईरोड ईस्ट इत्यत्र प्रायशः 67.97%, अपरत्र मिल्कीपुरे 65.35% यावत् मतदानं निष्पादितम्। सूचना प्रसारण मंत्री अश्विनी वैष्णवः नवदिल्ल्यां ओपेन आई एआई इत्याभिनामधेयकस्य प्रमुख कार्यकारी अधिकारिणा सैम ऑल्टमैन इत्यमुना साकं सहभागं समाचरितवान्। श्री वैष्णवः प्रोक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी तान् प्रौद्योगिकीनां लोकतन्त्रीकरणाय प्रेरयति, अपि च श्री ऑल्टमैन इत्यसौ प्रधानमन्त्रिणः दृक्कोणस्य प्रशंसां कृतवान्। मन्त्रिणा अग्रे निगदितं यत् असौ ओपेन एआई इत्येतस्य अनेन अधिकारिणा सह सम्पूर्णानां एआई स्टैक, जीपीयू, प्रारूप इत्येतेषां तन्त्रांशस्य च निर्माणस्य कार्यनीतौ बृहत्तमां चर्चां साधितवान्। ओपेन एआई इति एतेषु त्रिषु कार्येषु सहयोगार्थं तत्परं वर्तते। वर्ल्ड टेबल टेनिस प्रतिस्पर्धायाम् अद्य प्रागुपान्त्यचक्रे भारतस्य मिश्रितयुगलं फ्रांसदेशीयेन युगलेन सह स्पर्धां करिष्यति इति वार्ताः।